सप्तमोऽध्यायः श्री भगवानुवाच
मय्या सक्तमना पाथ योगं युञ्जन्मदाश्रयः असंक्षयं समग्रं मां यथा ज्ञास्यसि तत् शृणु ज्ञानं तेहं सविज्ञानम् इदं वक्ष्याम्यशेषतः यज्ज्ञात्वा नेह भूयोन्न ज्ञातव्यमवशिष्यते मनुष्याणां सहस्रेषु कश्चिद्यतिसिद्धये यतकामभिसिद्धानं कश्चिन्नान्वेति तत्त्वतः भूमिरापो नलो वायुः कं मनो बुद्धिरेव च अहंकार इति यं मे भिन्ना प्रकृतिरष्टदा अपरेयमिदश्चोन्या प्रकृतिं विद्धि मे परा जीवभूतां महाबाहो य एदं धार्यते जगत् एतद्योनीनि भूतानि सर्वाणीत्युपधारय अहं कृष्णस्य जगतः प्रभव प्रलयस्तथा मतः परतरं नान्यत् किञ्चिदस्ति धनञ्जय मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव रसोऽहमप्सुकं तेय प्रभास्मि शशिसूर्ययोः प्रणव सर्ववेदेषु शब्दके पौरुषं नृषु पुण्यगन्ध पृथिव्यां च तेजश्चास्मि विभावसु जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु